सर्वेभ्यः नमस्कारः शुद्धिकौमुदी कक्षां प्रति भवतां सर्वेषां स्वागतम्। पूर्वतनकक्षायां वयं संख्या इति विषये बहून् अंशान् ज्ञातवन्तः। अस्मिन् अन्तिमे पाठे वयं संख्या विशिष्टाः प्रयोगाः गीतायाम् अर्षप्रयोगाः इति विषये पश्यामः। सभायाम् अतिथित्रयाणां सत्कारः कृतः इति दोषयुक्तः प्रयोगः। अतिथित्रयस्य इति वक्तव्यम्। त्रयम् इत्यत्र द्वित्रिभ्यां त्रयस्य अयज्वा इति सूत्रेण त्रिशब्दात् अयच् प्रत्ययः भवति। त्रयम् इत्यस्य अर्थः त्रि अवयवकसमुदायः इति। समुदायस्य एकत्वात् एकवचनम् अतः अतिथित्रयस्य इति एकवचनान्तेन रूपेण एव इष्टसिद्धिः भवति। कतिचित् मासेभ्यः पूर्वम् एषा घटना प्रवृत्ता। कतिभ्यश्चित् इति प्रयोक्तव्यम्। कतिशब्दः मासशब्दस्य विशेषणम्। मासात् पञ्चमी बहुवचनं श्रूयते, अतः कतिशब्दादपि पञ्चमी बहुवचनम् एव श्रूयेत। कतिचन सहस्रपुस्तकानि अस्माभिः प्रकाशयिष्यन्ते इति भवेत्। कतिपयसहस्रम् इति प्रयोगः साधुः स्यात्। त्रिंशत्यधिकानि कथापुस्तकानि पठितानि। त्रिंशदधिकानि इति प्रयोक्तव्यम्। एतावत्पर्यन्तं वयं संख्याः इति तस्मिन् अध्याये दृष्टवन्तः। अग्रिमः अध्यायः विशिष्टाः प्रयोगाः, भ्रमजनकः प्राचीनः प्रयोगाः इति च। पिता पित्रा पुत्रः आदिष्टः यत् तेन आपणः गन्तव्यः इति। तेन इति प्रयोगः अस्थाने, त्वया इति प्रयोक्तव्यम्। पिता पुरतः स्थितं पुत्रमुद्दिश्य युष्मच्छब्दं प्रयुक्तवान् भवति, अतो तच्छब्दम्। अतः त्वया इति प्रयोक्तव्यम्। तथैव भ्रमजनकाः केचन प्राचीनाः प्रयोगाः प्रसिद्धाः सन्ति, तान् पश्यामः। रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः। अत्र कश्चन दोषः अस्ति, पत्ये इति भवितव्यम्। सीतायाः पत्ये इति शुद्धम्, अथवा सीतापतये इति। पतिस्समास एव इति सूत्रेण समासे एव पतिशब्दस्य विसंज्ञा भवति, अतः सीतापतये इति अथवा सीतायाः पत्ये इति। अत्र कश्चन दोषः अस्ति, टङ्कनदोषः। तथैव पिता रत्नाकरो यस्य लक्ष्मी यस्य सहोदरी शङ्खोरोदस्य भिक्षार्थे फलम् इति अस्ति। अत्र सहोदरी इति दोषयुक्तः प्रयोगः, सहोदरा इति प्रयोक्तव्यम्। सह नैपत्यं विद्यमानपूर्वाच्च इति सूत्रेण, नासिकोदर इति सूत्रेण च नीशः निषेधः क्रियते, अतः सहोदरा इति शुद्धं रूपम्। कृष्णमुखेन माध्यारे त्रिजिह्वा च सर्पिणी पञ्चभर्तेन पाञ्चाले यो जानाति स पण्डितः इति प्रहेरिका। स पञ्चभर्तृकः इति प्रयोक्तव्यम्। पञ्चभर्तारः यस्यास्त इति विग्रहवाक्यम्। न धृतश्च इति सूत्रेण कप् नित्यं भवति, सः पञ्चभर्तृका इति। न विश्वसेद मित्रस्य, मित्रस्यापि न विश्वसेत् इति। विश्वस्यादिति प्रयोक्तव्यम्। वि इति उपसर्गात् श्वसधातुः वर्तते, प्राणार्थकः अदादिगणीयः इति लिङ्गि विश्वस्यात् इति रूपम्। दृष्टिपूतं निषेत्पातं, वस्त्रपूतं पिबेत् जलं, शास्त्रपूतं वदेत् वाणी, मनःपूतं समाचरेत्, न्यस्येत् इति रूपम्। नि इति उपसर्गपूर्वकः असु धातु, क्षेपणम् इत्यर्थः, दिवादिगणीयः अयं धातुः। विधिलिङ् लकारे क्षयन् भवत्येव, अतः न्यस्येत् इति रूपम्। पापोऽहं पापकर्माहं पापात्मा पापसम्भवः, त्राहि मां कृपया देव विभक्ति वर्तते त्रायस्व इति प्रयोक्तव्यम्। त्रैधातु त्रैंधातु पानार्थकः धातुः नित्वात् नदात्तंगितः इति आत्मनेपदं भवति। अतः त्रायस्व इति रूपम्। अनुक्तमप्युहति पण्डितोजनः ऊहते इति प्रयोक्तव्यम्। ऊहधातुः वितर्कार्थकः भ्वादिः स आत्मनेपदी अतः ऊहते इति रूपम्। समहीमखिलां भुञ्जन् इति वर्तते मनुस्मृतौ भुञ्जानः इति प्रयोक्तव्यम्। भुजधातुः पालनार्थकः अव्यवहारार्थकः च। पालनार्थे सः परस्मैपति अव्यवहारार्थे भोगेव आत्मनेपति। अत्र राज्ञः भोगः इति अर्थः अतः आत्मनेपति एव भवति। यश्च मूढतमो लोके यश्च बुद्धेः परं गतः उभौ तौ सुखमेधेते क्लिश्यति अन्तरितो जनः। अत्र क्लिश्यते इति प्रयोक्तव्यम्। क्लिशधातुः उपतापार्थकः दिवादिः सः क्लिश्यते रूपम्। हरितकीं भुङ्क्ष्वराजन् मातेव हितकारिणी पालनमायां मातरमिव इति प्रयोक्तव्यम्। हरितकी इति उपमेयं माता इति उपमानम्। उपमान उपमेयो समाना विभक्ति स्यात् इति नियमः अतः मातरमिव प्रयोक्तव्यम्। तथैव अग्रिमः अध्यायः गीतायां मातृप्रयोगाः इति। अत्र पूर्वतने भवजनकाः प्रयोगाः बहु सन्ति किन्तु अत्र दिङ्मात्रं केचन एव प्रयोगाः दर्शिताः। नकांक्षे विजयं कृष्ण इति प्रसिद्धं प्रसिद्धः श्लोकः। काङ्क्षामि इति प्रयोगः वरम्। यतः काङ्क्षार्थकः काङ्क्षिधातुः परस्मैपदी तस्य लट्लकारे उत्तमपुरुषे एकवचनं रूपं काङ्क्षामि इति। स्थितदि किं प्रभाषेत किमासीत व्रजेत किम् इति प्रसिद्धश्लोकः व्रजेत् इति स्यात्। अतः कत्यर्थकः व्रजधातुः परस्मैपदि इति व्रजेत् इति रूपम्। न तु मां शक्यसे द्रष्टुम् अनेनैव सुषक्षुषा शक्नोषि इति प्रयोक्तव्यम्। शकलधातुः स्वाधिगणीयः परस्मैपदि शक्नोषि इति रूपम्। ऋषुभिः प्रतियोच्यामि पूजार्हावरिसूदन इति प्रसिद्धः श्लोकः। प्रतियोत्स्ये इति प्रयोक्तव्यम्। निवसिष्यति मय्येव अतवोत्थम् असंशयः। निवत्स्यसि इति प्रयोक्तव्यम्। वसुधातोः दृढी इडागमः न भवति। शुक्लकृष्णे गते ह्येते जगतः शाश्वते मते शुक्लकृष्णौ इति प्रयोक्तव्यम्। अत्र शुक्लकृष्णौ इति न शाश्वत कश्चन दोषः अस्ति। शाश्वत्यौ इति प्रयोक्तव्यम्। शश्वत इति अव्युत्पन्नं प्रातिपदिकम् स्मात् अण् भवति भवार्थे। अतः अण णित्वात् श्रिया णीप् भवति शाश्वती इति रूपं। शाश्वत्यौ इति प्रयोक्तव्यम्। एवं प्रायः षण्मासान् यावत् वयं शुद्धिकौमुदी कक्षायां बहून् शुद्धिकौमुदी इति ग्रन्थस्थान् अंशान् ज्ञातवन्तः। यदि केऽपि प्रश्नाः सन्ति भवन्तः कृपया अत्र प्रेषयितुमर्हन्ति। एषा शुद्धिकौमुदी कक्षा अत्र इदानीं समाप्यते। प्रायः अस्माभिः ग्रन्थस्थाः बहवः विषयाः परामृष्टाः। सर्वेभ्यः धन्यवादाः समर्प्यन्ते। शुभरात्रिः।